सर्वेभ्यः नमस्कारः। अद्य सिद्धान्तकौमुद्याः कारकप्रकरणे पञ्चमः पाठः, मे मासस्य षष्ठः दिनाङ्कः। येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च व्याकरणसिद्धान्तकौमुदीयं विरच्यते। बिफोर् स्टार्टिङ्ग् द कौमुदी टुडे वी विल् आल्सो लर्न् द अष्टाध्यायी। सो एज़् ऐ टोल्ड् यू, अष्टाध्याय्यां कारकप्रकरणसम्बद्धानि सूत्राणि द्वयोः स्थानयोः भवन्ति। प्रथमाध्यायस्य चतुर्थपादे कारकसंज्ञाविधायकानि सूत्राणि सन्ति। द्वितीयाध्यायस्य तृतीयपादे विभक्तिविधायकानि सूत्राणि भवन्ति। सो दिस् इस् वन् सीरीस् फ्रम् 1423 टु 1456-55 विच् कवर्स् आल् सूत्रास् विच् गिव् द कारकसंज्ञा। सो दट् इस् द कारकाधिकार स्टार्टिङ्ग् वित् कारके। वेरस् इन् द थर्ड् part of the second chapter and the anabhihita adhikara, we have all the vibhaktis. So first we will learn the karaka part of it, section of it for a few classes, and then we'll go on to vibhaktis. So anybody wants to volunteer for repeating the sutras? Somebody? Hoi? Okay. Bhanu Prakash ji, I'll unmute you. So, ready? कारके ध्रुवमपाये पादानम् भीत्रार्थानां भयहेतुः पराजयरसोढः वारणार्थानामीप्सितः अन्तर्धौव्येनादर्शनमिच्छति आख्यातोपयोगे आख्यातोपयोगे आख्यात उपयोगे आख्यातोपयोगे जनिकर्तुः प्रकृतिः भुवः प्रभवः कर्मणायमभिप्रैति स सम्प्रदानम् कर्मणायमभि करेक्ट् रुच्यर्थानां प्रीयमाणः श्लाघनुस्थाक्षपाम् श्लाघनुस्थाक्षपाम् दीप्स्यमानः
beliefs.
Dhare rutta marnaha. Sprihe reepsitaha. Krudhadruhershya. Asuyarthanam. Yam pratikopaha. Krudhadruhoho. Upasrishtayoho. Karma. Radhikshyoho. Yasya viprashnaha. Pratyangbhyam. Shruvah purvasya karta. Anupratigrinashcha. Sadhakatamam karanam. Divah karmacha. Parikrayane sampradanam anyatarasyam. Parikrayane. Adharodhikaranam. Adhishin sthasam karma. Abhinivishascha. Upan vadhyang vasaha. Upa anu adhi ang. Upan vadhyang vasaha. Karturipsita tamang karma. Karturipsita tamam karma. Tatha yuktanchani psitam. Akathitancha. Gati buddhi. Pratyavasanartha. Shabda karma. Akarmakanam. Anikarta sanau. Hrikroho. Anyatarasyam. Svatantrah karta. Tat prayojako hetuscha. Pragrishvaran nipatah. Oh, thank you. So, coming to the Karaka Prakarana from the Siddhanta Kaumudi. Prathama Vibhakti Prakaranam Adhitam. Tathaiva Dvitiya Vibhakti Prakaranam Arabdham. Dvitiya Vibhakti Prakarane Karma Samnya Nama Kim. Dvitiya Vagatam. Karma Samnya Vidhayakam Sutram Kim. Which is the Sutra which gives Karma Samnya? Kartu reepsitatamam karma. Kartu hu reepsitatamam karma. Iti karma samyavidhayakam sutram. कः अर्थः किं कर्मलक्षणम् इत्युक्ते कर्तुः क्रियया आप्तुम् इष्टतमं कर्म स्वक्रियया सम्बद्धुम् इष्टतमं भवति तत् कर्मसंज्ञं भवति इति सूत्रार्थः लिखितः. वाट् इस् द अदर् लक्षण आफ् कर्म विच् वि स्टडी हास् गिवन् इन् द व्याख्यानम्? किं कर्मलक्षणं किम्? कर्त्रा स्वनिष्ठव्यापारप्रयोज्यफलेन सम्बन्धुम् इष्यमाणं कर्म अथवा कर्तृव्यापारप्रयोज्यफलाशयः कर्म. तदेव कर्तृनिष्ठः यः व्यापारः, धात्वर्थः व्यापारः फलं च इत्यवगतम्. तत्र यः व्यापारः तेन प्रयोज्यं यत् फलं तस्य आश्रयः कर्म इति कर्मणः लक्षणम्. कथं समन्वयः? हौ डु यु अण्डर्स्टाण्ड् दिस् लक्षण अण्ड् हौ डु यु अप्लै दिस् टु एन् एक्साम्पल्? सो केन् एनिबडि अप्लै इट् टु एन् एक्साम्पल् अण्ड् टेल् मी? इफ् यु टेल् मी, इफ् एनिबडि वालण्टियर्स्, ऐ विल् अन्म्यूट् देम्. ऐ वाण्ट् यु टु अप्लै दिस् लक्षण टु वन् एक्साम्पल्. इट् नीड् नाट् बी द एक्साम्पल् विच् ऐ थाट्, एनि एक्साम्पल्, अण्ड् टेल् मी हौ देर् इस् कर्म संज्ञा इन् द एक्साम्पल्. कथम् अस्य लक्षणस्य उदाहरणे समन्वयः? Anybody? Okay, so Chalagopandi, you can try. Okay. अत्र क्रिया व्यापारः अथवा क्रिया का? एक्साक्ट्लि, क्रिया का अत्र? कुकिङ्ग्. कुकिङ्ग् इस् द आक्ट्. सो वाट् अकर्स् ड्यू टु कुकिङ्ग् इस् दट् विक्लिप्ति. Viklitti is the state of being cooked, where the, we saw what is Viklitti. It is where the particles absorb water and they become soft. Mridu bhavanam Viklitti. We saw in the Balavananama, he says you add water so it expands and absorbs water and becomes soft. That is Viklitti. So where do we find the state of being cooked? We find in Odana. Right? सो द फलम्, फलम् नाम विक्लिप्तिः, विक्लिप्तेः आश्रयः ओदनम्, अतः ओदनस्य कर्मसंज्ञा भवति. रैट्? सो पाचकः तण्डुलान् अथवा ओदनं पचति, विच् एवर् इस् द केस्, यु केन् टेक् इट्. यु केन् आल्सो अप्लै दिस् टु एनी एक्साम्पल् वेर् यु हाव् अ कर्मसंज्ञा. सो वाट् इस् द व्यापार, वाट् इस् द रिसल्टेण्ट् आफ् दट् व्यापार, अण्ड् विच् इस् द आश्रय फोर् दट् फल. सो भागत्रयमस्ति, व्यापारः कः, कर्ता कः, कर्तृनिष्ठं कर्तृनिष्ठः व्यापारः अथवा क्रिया का, तज्जन्यं फलं किं, तस्य फलस्य आश्रयः कः. सो देर् यु टेक् इट् फ्रम् द कर्ता टु द कर्म. సో ఇది కర్మలక్షణం అధీతం తత్ర దళకృత్యం అపి దృష్టం కర్తృగ్రహణం కిమర్థం కర్తు క్రియయా ఆప్తుం ఇష్టతమం కారకం కర్మ సంయోగం స్యాత్ ఇచ్యతే కిమర్థం కేవలం ఇష్టతమం ఇది ఉక్తే అలం కిల ఇతి చేత ఆశేష్వశ్వం బధ్నాతి అత్ర కర్మణః ఇప్సితాః మాషాః నతు కర్తుః ఇతి ఉచ్యతే అశ్వః మాషాన్ భోక్తుం ఇచ్చతి కర్తా తు ఉదరవేదనాభయాత్ అశ్వం మాషభక్షణాత్ నివర్తయితుం బధ్నాత్ అతః కర్తుః క్రియాకా బంధనక్రియ తస్య బంధనక్రియాయాః యత్ ఫలం అర్థాత్ గతి నిరోధః గతి నిరోధస్య ఆశ్రయః అశ్వః అతః అశ్వస్యైవ కర్మసంజ్ఞా భవతి నతు మాషాణాం ఈప్సితతమగ్రహణం కిమర్థం కర్తుః ఈప్సితతమం కర్మ ఇతి పయసా ఓదనం భుంక్తే పయోమిశ్రం ఓదనం భుంక్తే అత్ర పయసః కర్మత్వం నాస్తి కేవలం ఉద్దేశ్యం కర్తుః ఉద్దేశ్యం కర్మ ఇత్యుక్తే అత్ర పయః అపి ఉద్దేశ్యం ఓదనమపి ఉద్దేశ్యం హి వాంట్స్ టు హావ్ బోత్ కింతు ముఖ్యతయా తస్య క్రియయా సంబంధం ఇష్టతమం భవతి ఓదనం ఓదనస్య మిశ్రకత్వేన అర్థాత్ వ్యంజనత్వేన అథవా గుణత్వేన పయసః ఉద్దేశ్యం అతః ప్రధానస్యైవ కర్మత్వం భవతి నతు గౌణీభూతస్య పయసః పునః కర్మగ్రహణం కిమర్థం ఇతి ప్రశ్నః ఇదానీమేవ అష్టాధ్యాయీ దృష్టా ఆధారోధికరణం అధిశీంస్థాసాం కర్మ అభినివిశశ్చ ఉపాన్వధ్యాంగవశః కర్తృప్సితతమం కర్మ ఇతి సూత్రక్రమః తత్ర అధిశీంస్థాసాం కర్మ ఇతి సూత్రేణ కర్మగ్రహణం అనువర్తతే తథా సతి పునః కర్మగ్రహణం కిమర్థం ఇత్యుక్తే ఆధార నివృత్త్యర్థం తత్ర సర్వత్ర కిమ్ అస్తి ఆధారోధికరణం ఇతి ఉక్త్వా అధిశీంస్థాసాం కర్మ అధిశీంస్థాసాం ఆధారః కర్మసంజ్ఞః స్యాత్ అభినివిశశ్చ అభినివిశః ఆధారః కర్మసంజ్ఞం భవతి ఉపాన్వధ్యాంగవశః ఆధారః కర్మసంజ్ఞకః ఇత్యాది ఉచ్యతే అత్ర యది పునః కర్మగ్రహణం న క్రియతే తర్హి అత్రాపి ఆధారః కర్మసంజ్ఞం భవతి ఇత్యేవ వక్తుం వక్తవ్యం భవతి తథా సతి యత్ర ఆధారత్వమస్తి అర్థాత్ గృహం ప్రవిశతి గృహం ఆధారః కర్మ అపి తత్రైవ కర్మసంజ్ఞా సిద్ధ్యతి యత్ర తు ఆధారత్వం నాస్తి యథా ఫలం ఖాదతి తత్ర ఆధారత్వం నాస్తి చేత్ కర్మసంజ్ఞా న సిద్ధ్యేత్ తదర్థం పునః కర్మగ్రహణం క్రియతే ఆధార నివృత్తిర్థం పునః కర్మగ్రహణే కృతే ఆధారః ఇత్యస్య నివృత్తిర్భవతి కేవలం కర్మ ఈప్సితతమం యద్యద్ భవతి తత్సర్వం కర్మ ఇది అవగమ్యతే. ఎనీ క్వశ్చన్స్ ఫ్రమ్ ప్రీవియస్ క్లాస్? ఎనీథింగ్ యూ వుడ్ లైక్ టు ఆస్క్? గృహం ఇత్యస్య కర్మత్వమేవ భవతి నాట్ ఆధారసి దట్ ఇస్ వాట్ అత్ర ఇదానీం గృహం ఇత్యస్య కర్మసంజ్ఞా భవతి వా ఆధారసంజ్ఞా భవతి వా ఇతి ప్రశ్నః. తత్ర ఉత్తరద్వయమస్తి. ఏకం తు వివక్షాతః కారకాణి భవంతి ఇతి సాధారణ నియమః. యత్ర ఆధారత్వ వివక్ష, యత్ర ఆధారత్వేన గృహస్య వివక్ష, తత్ర అధికరణసంజ్ఞా భవతి. యత్ర తు కర్మత్వేన వివక్ష, తత్ర కర్మసంజ్ఞా భవతి ఇతి ఏకం. ఉభయం ప్రాప్తుం యోగ్యత అస్తి. యత్ర ఉభయస్య ప్రాప్తిః తత్ర పరత్వాత్ కర్మసంజ్ఞైవ భవతి ఇత్యపి నియమః. దట్ ఇస్ వై ద క్రమ ఆఫ్ ద అష్టాధ్యాయీ హి డస్ నాట్ గో ఇన్ ద ఆర్డర్ ఆఫ్ కర్త కర్మ కరణ ఎట్సెట్రా. హి స్టార్ట్స్ విత్ అపాదాన సంప్రదాన కారణ అధికరణ అండ్ దెన్ కర్మ ఫైనలీ కర్త. సో కర్త ఇస్ ద మోస్ట్ బలీయస్తుం. యత్ర అన్యాసాం సంజ్ఞానాం తథా కర్తృసంజ్ఞాయాః ప్రాప్తిః అస్తి తత్ర కర్తృసంజ్ఞా ఏవ భవతి పరత్వాత్. ఏమత్రాపి యది ఆధారసంజ్ఞాయాః కర్మసంజ్ఞాయాః ఉభయోః అపి ప్రాప్తిః అస్తి తదా పరత్వాత్ కర్మసంజ్ఞైవ భవతి. కింతు తత్ర వివక్ష అపి భవతి. కిం వివక్ష్యతి వక్త? యది అధికరణస్య వివక్ష, కర్మణః ఈప్సితతమత్వేన వివక్ష నాస్తి తదా అధికరణసంజ్ఞా భవతి. యదా తు ఈప్సితతమత్వ వివక్ష, తత్ర కర్మసంజ్ఞా భవతి. ఎనీ అదర్ క్వశ్చన్స్? अग्रे सरामः अनभिहिते इति अग्रिमं सूत्रम्। इदानीं किम् अधीतं? कर्मसंज्ञा। किं पाचकः तण्डुलान् पचति इत्युक्ते तण्डुलस्य कर्मसंज्ञा इति ज्ञातं, किन्तु द्वितीया विभक्तिः कथम् इति इतोपि नावगतम्। तत्र अनभिहिते इति अस्ति द्वितीयाध्यायस्य तृतीयपादस्य प्रथमं सूत्रम् इत्यधिकृत्य अधिकारसूत्रमिदम्। अनभिहिताधिकारः इत आरभ्य, अर्थात् तृतीयपादस्य प्रथमसूत्रादारभ्य चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः इति तस्यैव पादस्य त्रयस्सप्ततितमं सूत्रम्, अर्थात् पादस्य अन्तिमं सूत्रं तत्पर्यन्तम्, अर्थात् आपादम् अनभिहिताधिकारः। सो द अधिकार पर्वेज द एंटायर विभक्ति प्रकरण, सो एनी विभक्ति फॉर दैट मैटर विल हैव अनभिहिते। व्हाट डज इट मीन? इट इज वेरी सिंपल। व्हाट इज अनभिहिताधिकार? एज वी सॉ अष्टाध्यायी किम् अस्ति, कारक विधायकानि सूत्राणि प्रथमाध्यायस्य चतुर्थपादे निबद्धानि सन्ति, विभक्ति विधायकानि सूत्राणि तु द्वितीयाध्यायस्य तृतीयपादे अनभिहिताधिकारे। विभक्तिसूत्रेषु सर्वत्र अनभिहिताधिकारः अस्ति। कोऽर्थः? अनभिहिते, अभिहितं नाम उक्तम् इत्यर्थः, न अभिहितम् अनभिहितम्, अनभिहितं नाम अनुक्तम्, न उक्तम्। अतः अर्थः यमर्थं वक्तुं सा विभक्तिर्विधीयते। सो द विभक्ति इस् बीङ्ग् टोल्ड् और् गिवन् टु कन्वे अ पर्टिक्युलर् मीनिङ्ग्। फार् एक्साम्पल् इट् सेस् कर्मणि द्वितीया, कर्म बोधयितुं द्वितीया विभक्तिः भवति। कर्तृकरणयोः तृतीया, कर्तारं करणं वा बोधयितुं तृतीया विभक्तिः भवति इत्यादि। सः अर्थः अन्येन केनापि उक्तः। सो इफ् दट् मीनिङ्ग् हेज़् आलरेडी बीन् कन्वेड् बै सम् अदर् पार्टिकल् आफ् द सेण्टेन्स् तदा, सो यमर्थं वक्तुं सा विभक्तिर्विधीयते, सोऽर्थः अन्येन केनापि उक्तो न स्यात्। सो दट् शुड् नाट् हेव् बीन् द सेम् मीनिङ्ग् should not have been conveyed by any other particle in that sentence, in that anvaya, wherever you are doing the anvaya. Tatha satyeva tasyaha vibhaktesh pravrittihi. So only in that case that vibhakti will occur. It is common sense. See, uktarthana maprayogaha. You will not use more than one particle to convey the same meaning. So to convey one particular meaning, you have one particle. It could be, we will see what all other things can convey the same meaning. So it could be say tinganta or it could be vibhakti. So ting pratyaya or vibhakti. Say when you are saying ramena ravanaha hanyate, okay, there the karma is being given by the ting. Gamyate ityatra karmani vibhakti, karmani ting pratyaya. Okay, so the ting pratyaya is giving the sense of karma and there is nothing else. Ramena ravanaha hanyate, which is giving the sense of karta. So therefore, anabhihite kartari tritiya. Since the karta has not been given by anything else, we have tritiya vibhakti on the karta. But when you come to karma, Ravana is the karma, kartuhu ipsita tamam. Ramena hanana kriyaya sambandhum ishyamanaha kaha Ravana. So, Ramasya vyaparaha kaha hananam. Tat prayaktam phalam kim. Say, what is the phala of that hanana kriya is Ravana dying. That is maranam or prana nirgamanam, so where his pranas leave him, and so on, you can define. So, tasya ashrayaha, the ashraya for that phala will be Ravana. So, Ravana is karma, but the karma is already been given by hanyate, the pratyaya. Pratyayena abhihitatvat, Ravana ityatra, dvitiya vibhakti hinabhavati. Yadyapi Ravanaha karma, tathapi karma bodhaitum dvitiya vibhakti hinabhavati. कर्म बोधयितुं तिङ् प्रत्ययेनैव कर्मणः उक्तत्वात्, अतः तत्र प्रातिपदिकार्थमात्रे प्रथमा। सो सोऽर्थः अर्थात् विभक्त्या यः अर्थः वक्तुमिष्यते, सोऽर्थः यदि अन्येन पदेन उक्तः तर्हि सा विभक्तिर्न भवति इत्यर्थः। सो दट् इस् वाट् अनभिहिते मीन्स् एव्रिवेर्। अनभिहिते कर्मणि द्वितीया, अनभिहिते कर्तरि तृतीया। सो यु हव् टु आड् आन् दट् अनभिहित to each sutra in that pada. So everywhere you have to say anabhihite. So it is a general rule. As long as that particular sense is not being conveyed by anything else, then you can add that vibhakti to convey that sense. So that is what we saw. Karma karakasya dvitiya vibhakti hi iti uchyate. यदि कर्म अभिहितं तर्हि द्वितीया न भवति. सो कर्मणि द्वितीया इति अनभिहिताधिकारे प्रथमं सूत्रं. सो दिस् इस् दिस् इमिडियेट्लि फालोस् अनभिहिते इति उक्त्वा कर्मणि द्वितीया इति द्वितीयं सूत्रं पादस्य. कर्मणि द्वितीया इति पदद्वयं सूत्रे अनभिहिते इति अधिक्रियते. तोर्थः अनुक्ते कर्मणि द्वितीया स्यात्. Very simple. So when karma has not been told by other things, we'll have dvitiya vibhakti. Harim bhajati. Bhaktaha harim bhajati. Iti vakyam. So harim bhajati iti balamanorama. We'll now see what the balamanorama kara says. Harim bhajati iti pratike. तुष्ट्यनुकूल परिसरणात्मक व्यापारः भजे रक्षः. सो वाट् इस् द मीनिङ्ग् आफ् द धातु भज धातुः. भज धातोः कः अर्थः? तुष्ट्यनुकूल परिसरणात्मक व्यापारः. सो व्यापार परिसरणात्मकः विच् इन्वाल्व्स् सर्विङ्ग् परिचर्या, तत् तदात्मकः व्यापारः. तस्य फलं किं? तुष्टिः. इण्टेण्डेड् टु प्लीज् सम्बडी. तुष्ट्यनुकूल परिसरणात्मक व्यापारः भजेरर्थः. पूजादि व्यापारेण हरिं तोषयति इत्यर्थः. सो हरिं भजति इत्यस्य कः अर्थः? पूजादि व्यापारेण, बै परफॉर्मिंग सर्विसेस टू हरि लाइक वर्शिप, हरिं तोषयति. द डिवोटी प्लीसेस हरि. कर्तृनिष्ठ पूजनादि व्यापार प्रयोज्य तुष्टिरूप फलाश्रयत्वात् हरिः कर्म. सो कर्ता कः? भक्तः. सो तन्निष्ठः व्यापारः, पूजनादि व्यापारः. सो एक्शन्स् लैक् वर्शिपिङ्ग्. तत् प्रयोज्य तुष्टिरूप फलम्. सो वाट् इस् बोर्न् औट् आफ् दट् एक्शन् इस् तुष्टि, द प्लेजर् इन् हरि, रैट्? सो तुष्टिरूप फल आश्रयत्वा. सो वेर् इस् दट् प्लेजर् सीन्? इन् हरि. सो तस्य आश्रयत्वात् हरिः कर्म. सो हरि इस् द कर्म. हरिनिष्ठ तुष्ट्यनुकूल एतदेव दत्तनिष्ठः वर्तमानो व्यापारः इति बोधः. सो द शाब्दबोध, हौ डु वि पर्सीव् दट् मीनिङ्ग्? द शाब्दबोध इस् एन् इम्पोर्टेण्ट् पार्ट् इन् आल् शास्त्र, नाट् जस्ट् इन् व्याकरण. वि हेव् तर्क, वि हेव् मीमांसा, एव्रिवेर् दे हेव् डिबेटेड् हौ शाब्दबोधः कथं भवति. वि हेव् वर्ड्स् एण्ड् दे हेव् सम् मीनिङ्ग्. हौ डु वि पर्सीव् मीनिङ्ग्? शब्दस्य बोधः, शाब्दः बोधः कथं भवति इति. इट्स् अ वेरि वेरि एक्स्टेन्सिव् टापिक् इन् आल् शास्त्र एण्ड् आल् शास्त्र डिफर्. ओके, दे डिफर् इन् स्पेसिफिक्. ओके, सो फार् एक्साम्पल् द इन् अकार्डिङ्ग् टु तार्किक द कर्ता इस् प्रधान. ओके, वेर् एस् अकार्डिङ्ग् टु वैयाकरण व्यापार इस् प्रधान. दट् इस् व्यापार विल् बि द विशेष्य, एव्रिथिङ्ग् एल्स् विल् बि विशेषण. सो दट् इस् वै हि सेस् हरिनिष्ठ तुष्ट्यनुकूलः एकदेव दत्तनिष्ठः वर्तमानः व्यापारः. सो फैनली वि हेव् व्यापार. सो द इण्टेण्ट् आफ् दट् सेण्टेन्स् इस् व्यापार. द एक्शन्, वाट् इस् द एक्शन्? वर्तमानः व्यापारः. एन् एक्शन् इन् द प्रेसेण्ट् टेन्स् विच् इस् अकरिङ्ग् प्रेसेण्ट्लि. एकदेव दत्तनिष्ठः. सो द एक्शन् इस् प्रेसेण्ट् इन् देवदत्त. एकदेवदत्त, दट् इस् एक देवदत्त हु इस् सिङ्गुलर्. इफ् देर् इस् बालकाः, इट् वुड् बि बहु बालकनिष्ठ. सो एकदेव दत्तनिष्ठः. द व्यापार इस् अकरिङ्ग् इन् अ सिङ्गल् सिङ्ग्युलर् कर्ता हु इस् देवदत्त. एण्ड् तुष्ट्यनुकूलः, दट् व्यापार विल् लीड् टु तुष्टि प्लेजर् इन् होम् हरिनिष्ठ इन् हरि. सो विच् मीन्स् हरिकर्मकं देवदत्तकर्तृकं. हरिकर्तृकः देवदत्त, क्षम्यताम्, हरिकर्मकः देवदत्तकर्तृकः व्यापारः इत्यर्थः. सो दट् इस् वाट् हीस् बीङ्ग् टोल्ड् इन् दिस् वे. दट् इस् वाट् वि काल् शाब्दबोध. हरिनिष्ठ तुष्ट्यनुकूल एकदेव दत्तनिष्ठः वर्तमानो व्यापारः इति बोधः भावप्रधानमाख्यातम् इति निरुक्तकारस्य निरुक्तकारयास्कवचनात्. सो वै वी डु वि टेक् व्यापार एस् द मोस्ट् इम्पार्टेण्ट् आर् द विशेष्य इन् शाब्दबोध? भावप्रधानम् आख्यातम् इति यास्कः. सो इवन् बिफोर् द व्याकरण निरुक्त यास्कमहर्षिः उक्तवान् आख्यातं नाम तिङन्तं भावप्रधानम्. सो भाव व्यापार इस् द मोस्ट् इम्पार्टेण्ट् इति उक्तम्. अतः व्यापार प्राधान्यम इति वैयाकरणानां सिद्धान्तः. क्रिया प्रधानं तिङन्तम् इति तदर्थः. सो व्हाट डज इट मीन? भाव भावः नाम क्रिया, क्रिया प्रधानं तिङन्तम् एवं च. ओके, सो दट इज व्हाट ही सेज. ही निगेट्स द मत ऑफ तार्किक. तार्किकाः किं वदन्ति? हरिनिष्ठ तुष्ट्यनुकूल व्यापाराश्रयः देवदत्तः. देवदत्त कर्ता अस् द विशेषण. इफ् यू कम्पेर् दीस् टु यू केन् सी द डिफरेन्स्. ओके, सो वी टेक् व्यापार अस् द विशेष्य. तार्किकर्स् विल् टेक् देवदत्त कर्ता अस् द विशेष्य. सो प्रथमान्तविशेषकबोधः तार्किकसम्मतः नादर्तव्यः इति मञ्जूषादौ प्रपञ्चितम्. सो दट् इस् अ डिफरेण्ट् थिङ्ग्, नाट् डैरेक्ट्लि रिलेटेड् टु वाट् वि आर् डूङ्ग्. सो नौ वाट् डु वि हाव्? कर्मणि द्वितीया, अनुक्ते कर्मणि द्वितीया स्यात्. भावः नाम क्रिया. आम्, व्यापारः क्रियाभावः इति पर्यायपदानि इति अस्माकं. So there is bhavana and, there is a difference. There is kriti, bhavana, etc. Distinctions are seen in tarkikas and mimamsakas. Kintu asman mate sarvam samanam. Bhavana, kriya, bhavaha, kritihi, sarvam samanam. Asmakam. Vyakaran. Bhava is kriya, vyapara. So now, harim bhajati. Harihi, karma. अनुक्ते कर्मणि, कर्मणः अनभिहितत्वे तस्य द्वितीया विभक्तिः भवति. अतः हरिं पचति, तण्डुलान् पचति सर्वत्र. अभिहिते कर्मणि प्रथमा. अभिहिते तु कर्मणि प्रातिपदिकार्थमात्रे इति प्रथम इव. यत्र तु कर्म अभिहितं भवति, अन्येन केनापि उक्तं भवति, तत्र किं कर्मणि द्वितीया इति न भवति इत्यर्थः. सिन्स् द सूत्र सेस् अनुक्ते कर्मणि द्वितीया, देर् विल् नाट् बि द्वितीया. इट् डस् नाट् से इट् हेस् टु बि प्रथम. देर् विल् बि नाट् द्वितीया. यु हेव् टु डु सम् विभक्ति. सो दट् विभक्ति विल् बि प्रथम बिकास् प्रातिपदिक अर्थमात्रे. सो द विभक्ति इस् नाट् कन्वेनिङ्ग् एनिथिङ्ग् एल्स्. कर्म हेस् आलरेडि बीन् गिवन् बै सम्थिङ्ग् एण्ड् नौ देर् इस् ओन्लि प्रातिपदिकार्थ विच् इस् लेफ्ट्. सो दट् विल् बि गिवन् बै प्रथमा विभक्ति. प्रातिपदिकार्थ लिङ्गपरिमाणवचनमात्रे प्रथमा. भक्तेन हरिः भज्यते इति यदा उच्यते, भज्यते इत्यत्र ते इति कर्मणि लकारः, कर्मणि तिङ् प्रत्ययः. अत्र कर्मणः उक्तत्वात् हरिशब्दात्, हरिः इति कर्म. यु शुड् बि वेरि क्लियर् अबौट् इट्. हरि इस् स्टिल् कर्म. ओके, भक्तः कर्ता, हरिः कर्म. भक्तः हरिं भजति इत्यत्रापि भक्तः कर्ता, हरिः कर्म. अत्रापि भक्तः कर्ता, हरिः कर्म. द कारक विल् नाट् डिफर्. इट् इस् ओन्लि द विभक्ति. तत्र भक्तः हरिं भजति, कर्मणः अनभिहितत्वात् हरिशब्दात् द्वितीया भवति. कर्तुः अभिहितत्वात्, सिन्स् द कर्ता हेस् बिन् गिवन् बै द तिङन्त, भजति कर्तरिलकारः. कर्तुः अभिहितत्वात् कर्तृवाचकात् भक्तशब्दात् प्रातिपदिकार्थमात्रे प्रथमा. भक्तः हरिं भजति. अत्र तु भज्यते इति कर्मणि लकारः, कर्मणः उक्तत्वात् हरिशब्दात् द्वितीया विभक्तिः न भवति. प्रातिपदिकार्थमात्रे इति प्रथमा. कर्तुः अनभिहितत्वात् कर्तृकर्मकरणयोस्तृतीया इत्यनेन तृतीया. भक्तेन हरिः भज्यते. सो कर्मणि प्रयोगः, ते प्रत्ययः, तप् प्रत्ययः, कर्म उच्यते. सो वि हाव् आलरेडी सीन् तिङर्थाः, कारकसङ्ख्याकालाः. सो हियर् कर्म, कर्म सङ्ख्या नाम एकवचनं, कालः वर्तमानकालश्च तिङ् प्रत्ययेन बोध्यते. सो कर्मणः उक्तत्वात् अभिहितत्वात् नाम उक्तत्वात् हरिशब्दात् द्वितीया विभक्तिः न भवति इत्यर्थः. अभिधानञ्च प्रायेण तिङ्कृत्तद्धितसमासैः. इदानीम् उच्यते अभिधानं केन भवितुमर्हति. वाट् आर् द अदर् थिङ्ग्स् विच् केन् कन्वे द मीनिङ्ग् आफ् द विभक्ति आर् द कारक. So what are the other things which can convey the same meaning? We have seen here that it is tinganta, which is, or the ting pratyaya, which is conveying the meaning. Okay? So it need not be always ting. Ting, krit, tadhita, samasa. So these are the four particles which can convey the same meaning, where there will be no vibhakti. Vibhakte hai uktatvat, sa vibhakti hi na bhavati. Katham iti pashyamaha. Tinga abhidhanam. ऑलरेडी सीन हरिः सेव्यते इति उदाहरणं दत्तम्। लक्ष्मीः हरिं सेवते इति कर्तरि प्रयोगः। सो लक्ष्मीः कर्त्री, हरिः कर्म। ओके, हरिः सेवनक्रियायां कर्म, हरि इस् द कर्म। सेवते इति कर्तरि लकारः अर्थात् तिङ् प्रत्ययः। कर्तुः अभिहितत्वात् कर्तृवाचकात् प्रथमाविभक्तिः। कर्मणः अनभिहितत्वात् द्वितीया। लक्ष्म्या हरिः सेव्यते इति यत्र अस्ति तत्र कर्मणि लकारः, अतः कर्मणः उक्तत्वात् हरिशब्दात् द्वितीया न भवति, प्रातिपदिकार्थमात्रे प्रथमा। सो हरिस्सेव्यत इति इन् द बालमनोरमा। सो हरिस्सेव्यत इति लः कर्मणि च भावे च कर्मकेभ्यः इति सूत्रं, तेन सूत्रेण कर्मणि लकारः। सो द लकार विच् इस् बीङ्ग् एडेड् टु द धातु इस् इन् द सेन्स् आफ् कर्म। सो भावकर्मणोः इति आत्मनेपदम्, कर्मणि लकारः इत्यत एव आत्मनेपदं भवति भावकर्मणोः। तिङन्तेन अभिहितत्वात् हरेः कर्मणः न द्वितीया इति भावः। हरिं भजति इति वाक्यार्थः। सो सेवते भजति आर् द सेम्, इट् इस् द सेम् थिङ्ग्, बट् कर्तृकर्मलकारयोः एकरूपः एव वाक्यार्थबोधः इति वैयाकरणसमयः। सो अगेन् हि गोस् इन् टु शाब्दबोधः। So, will Shabdabodha differ in between Kartralakara and Karmalakara is a question. So, he says it will not. Shabdabodha is still the same. What is it? Harinishtha, Preetyanukula, Lakshmi, here Lakshmi is the Kartri. So, Harinishtha, Tushtyanukula, Kulaha, Eka Lakshmi Nishtaha, Vyaparaha, iti Shabdabodha. Whether you take Lakshmi Harit Sevyate or Lakshmi Harim Sevate. So, we say that the Shabdabodha is the same. So, but it is, in the words, it is different. Which is the particle of the sentence which is conveying karma? Purvatra vibhaktya, harishabdad ya dvitiya vibhaktihi taya karma bodhyate. Atratu tinga karma bodhyate iti bheda. So, atra kashchana prashnaha, vibhaktya kim bodhyate? विभक्त्या कर्मत्वमेव बोध्यते। अनभिहिते इति किम्? अन्येन केनापि न, यदा अन्येन बोधः नास्ति तत्र तदैव विभक्तिर्भवति इत्यर्थः। विभक्त्या तु कर्मत्वमेव बोध्यते। यतोहि यतः सा विभक्तिः कर्म बोधयति, अत एव कर्म अन्येन अनभिहितम् इति आक्षेपाल् लभ्यते, किन्तु विभक्त्या तु कर्मत्वमेव बोध्यते। सो दट् इस् अबौट् तिङा अभिधानम्। तिङा यत्र कर्म अथवा अभिधानं भवति, इट् नीड् नाट् बि कर्म आल्वेस्, इट् केन् बि सम्थिङ्ग् एल्स् आल्सो, इट् केन् बि कर्ता, कर्तुः अभिधानमपि भवितुमर्हति तिङा। कृता अभिधानम्, कृत् प्रत्ययेन अभिधानम् कथम्? लक्ष्म्या सेवितः इति उदाहरणम् दत्तम्। लक्ष्मीः हरिम् सेवितवती इति कर्तरि प्रयोगः। सो अगेन् इट् इस् द सेम्, सेवते इत्यस्य स्थाने सेवितवती इति कृदन्तस्य प्रयोगः अस्ति। हरिः कर्म। सो लक्ष्म्या हरिस्सेवितः, अत्र तु किम् भवति? लक्ष्म्या सेवितः इत्यत्र, सो बिफोर् सेवितवती इत्यत्र क्तवतु प्रत्ययः कर्तृर्थे, सेवितः इत्यत्र क्त प्रत्ययः। सो दट् इस् क्तवतु इस् द कृत् प्रत्यय इन् द फस्ट् केस् एण्ड् क्त इस् द कृत् प्रत्यय इन् द सेकेण्ड् केस्। सो क्त इस् इन् कर्मार्थ, तयोरेव कृत्यक्तखलर्थाः इति उच्यते भावकर्मणोः। सो कर्मणि क्त प्रत्ययः। सो द त दट् इस् द कृत् प्रत्यय इस् कन्वेयिङ्ग् द सेन्स् आफ् कर्म। कर्म कृता अभिहितम्, अतः हरिशब्दात् द्वितीया न भवति। सो लक्ष्म्या सेवित इति व्याख्याने हरिरिति शेषः। सो लक्ष्म्या सेवितः हरिः, बिकास् वी नीड् द कर्मपद, वी आर् सेयिङ्ग् दट् कर्मपदस्य न भवति। सो हरिरिति शेषः। भूते कर्मणि क्तः, सो भूतकाले कर्मार्थे क्तप्रत्ययः, कर्तरि तृतीया। लक्ष्म्या इत्यत्र कर्तरि तृतीया भवति। लक्ष्मीनिष्ठ त ಪರಿಚರಣ ಜನಿತ ತುಷ್ಟ್ಯಾಶ್ರಯ ಹರಿಹಿ ಇತಿ ಬೋಧಃ. ಸೊ ಹಿಯರ್ ಹಿ ಶೋಸ್ ದ ಡಿಫರೆನ್ಸ್ ಇನ್ ಶಬ್ದ ಬೋಧ. ವೇರ್ ದರ್ ಇಸ್ ಲಕಾರ ಇಟ್ ಇಸ್ ಆಲ್ವೇಸ್ ವ್ಯಾಪಾರ ಪ್ರಧಾನ ಭಾವ ಪ್ರಧಾನಂ ಆಖ್ಯಾತಂ. ಸೊ ತಿಂಗಂತೆ ವ್ಯಾಪಾರಸ್ಯ ಪ್ರಾಧಾನ್ಯಂ. ಯತ್ರ ತೂ ಸುಬಂತಃ ಸೇವಿತ ಇಟ್ ಇಸ್ ಕೃದಂತ ಕೃತ್ಯರ್ಥಿತ ಸಮಾಸಶ್ಚ ಇತಿ ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ ತತಃ ಸುಬುತ್ಪತ್ತಿ. ಸೊ ನೌ ಇಟ್ ಇಸ್ ಎ ಸುಬಂತ ರೈಟ್. ಸೊ ಸತ್ವ ಪ್ರಧಾನಾನಿ ನಾಮಾನಿ ಇತಿ ವ್ಯಾಸ್ಕ ಸ್ಮೃತಿಂ ಅನಿರುದ್ಧ ಅನುರುದ್ಧ ಪ್ರಾತಿಪದಿಕೇಶು ಪ್ರಥಮಾಂತೋಪಾತ್ತ ವಿಶೇಷಕ ಬೋಧಸ್ಯೈವ ಸರ್ವಸಮ್ಮತತ್ವಾತ್. ಸೊ ಇನ್ ಕೇಸ್ ಆಫ್ ಕೃದಂತ ದಟ್ ಇಸ್ ದರ್ ಇಸ್ ಎ ಪ್ರಾತಿಪದಿಕ ಪ್ರಥಮಾಂತ ವಿಶೇಷಕ ಬೋಧ ದ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಅಂತ ದಟ್ ಇಸ್ ಹರಿ ವಿಲ್ ಬಿ ವಿಶೇಷ ಸರ್ವಸಮ್ಮತತ್ವಾತ್. ನೌ ಹಿ ಸೇಸ್ ದಿಸ್ ಇಸ್ ಅಕ್ಸೆಪ್ಟೇಬಲ್ ಬೈ ಆಲ್ ಬಿಕಾಸ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ತಾರ್ಕಿಕಸ್ ಎವ್ರಿವೇರ್ ಇಟ್ ಇಸ್ ಪ್ರಥಮಾಂತ ವಿಶೇಷಕ ಬೋಧ. ಸತ್ವ ಪ್ರಧಾನಾನಿ ನಾಮಾನಿ ಇತಿ ಯಾಸ್ಕ ಸ್ಮೃತಿಂ ಅನಿರುದ್ಧ ಪ್ರಾತಿಪದಿಕೇಶು ಪ್ರಥಮಾಂತೋಪಾತ್ತ ವಿಶೇಷಕ ಬೋಧ. ಸೊ ದಟ್ ಇಸ್ ವೈ ವಿ ಆರ್ ಸೇಯಿಂಗ್ ಲಕ್ಷ್ಮೀನಿಷ್ಠ ಪರಿಚರಣ ಜನಿತ ತುಷ್ಟ್ಯಾಶ್ರಯ ಹರಿಹಿ. ವಿ ಆರ್ ನಾಟ್ ಸೇಯಿಂಗ್ ವ್ಯಾಪಾರ ಅಟ್ ದ ಎಂಡ್, ವಿ ಆರ್ ಸೇಯಿಂಗ್ ಹರಿಹಿ. ಲಕ್ಷ್ಮೀನಿಷ್ಠ ಯಃ ವ್ಯಾಪಾರ ಕೀದೃಶಃ ವ್ಯಾಪಾರ ಪರಿಚರಣ ರೂಪ ವ್ಯಾಪಾರ ತಜ್ಜನಿತಂ ಫಲಂ ತುಷ್ಟಿ ತಸ್ಯ ಆಶ್ರಯ ಹರಿಹಿ. ಓಕೆ, ಸೊ ದೇರ್ ಇಸ್ ಪ್ರಥಮಾಂತ ಬೀಯಿಂಗ್ ದ ವಿಶೇಷ ಹಿಯರ್. ಸೊ ದೇರ್ ಇಸ್ ಅ ಡಿಫರೆನ್ಸ್ ಇನ್ ಶಬ್ದ ಬೋಧ. ಸತ್ವ ಪ್ರಧಾನಾನಿ ನಾಮಾನಿ ಸತ್ವಂ ನಾಮ ದ್ರವ್ಯಂ. ಸೊ ನಾಮಪದೇ ದ್ರವ್ಯಂ ಪ್ರಧಾನಂ ಭವತಿ, ಕ್ರಿಯಾಪದೇ ತಿಂಗಂತೆ ವ್ಯಾಪಾರ ಪ್ರಧಾನಂ ಭವತಿ. ಸತ್ವಂ ನಾಮ ದ್ರವ್ಯಂ. ಅತ್ರ ಸೇವಿತ ಹರೇಹೆ, ನೌ ದ ಪಾಯಿಂಟ್ ಫಾರ್ ಅಸ್ ಇಸ್ ಸೇವಿತ ಯಹ ಹರಿಹಿ ತಸ್ಯ ಕರ್ಮಣಃ ಕೃತ ಅಭಿಹಿತತ್ವಾತ್. ಸಿನ್ಸ್ ದ ಕರ್ಮ ಹ್ಯಾಸ್ ಬೀನ್ ಕನ್ವೇಡ್ ಬೈ ದ ಕೃದಂತ ದಕ್ತ ಪ್ರತ್ಯಯ, ದೇರ್ ಇಸ್ ನೋ ದ್ವಿತೀಯ ಆನ್ ಹರಿ. ಓಕೆ, ಸೊ ಫಾರ್ ನೌ ಐ ಮೀನ್ ಇಫ್ ಯು ಡು ನಾಟ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ದ ಡೀಟೇಲ್ಸ್ ಫರ್ಗೆಟ್ ಅಬೌಟ್ ಶಬ್ದ ಬೋಧ, ವಿ ಆರ್ ಓನ್ಲಿ ಕಾನ್ಸಂಟ್ರೇಟಿಂಗ್ ಆನ್ ದ ಶಬ್ದ. ನೌ ದ ದ್ವಿತೀಯ ಹರಿಹಿ ಇತ್ಯತ್ರ ಹರಿ ಶಬ್ದ ಕರ್ಮ, ಹರಿ ಇಸ್ ಕರ್ಮ, ಕರ್ಮಣಿ ದ್ವಿತೀಯ ಇತಿ ದ್ವಿತೀಯ ಕಿಮರ್ಥಂ ನ ಭವತಿ ಇತ್ಯುಕ್ತೆ ಕ್ತ ಪ್ರತ್ಯಯೇನ ಕರ್ಮ ಅಭಿಹಿತಂ ತಸ್ಮಾತ್ ಹರಿ ಶಬ್ದಾತ್ ದ್ವಿತೀಯ ನ ಭವತಿ ತರ್ಹಿ ಕಿಂ ಭವತಿ ಪ್ರಥಮ ಕಥಂ ಪ್ರಥಮ ಪ್ರಾತಿಪದಿಕಾರ್ಥೇ ಪ್ರಥಮ. ಸೊ ದಟ್ ಇಸ್ ಕೃತ ಅಭಿಧಾನಂ ತದ್ಧಿತೇನ ಅಭಿಧಾನಂ ತದ್ಧಿತ ಪ್ರತ್ಯಯೇನಾಪಿ ಅಭಿಧಾನಂ ಭವಿತುಂ ಅರ್ಹತಿ ಶತೇನ ಕ್ರೀತಃ ಶತ್ಯಃ. ಪಟಂ ಶತೇನ ಕ್ರೀತವಾನ್ ಕಶ್ಚಿತ್ ಕರ್ತ ಚೈತ್ರ. ಪಟಂ ನಾಮ ಸಮ್ ಕ್ಲಾತ್, ಶತೇನ ವಿತ್ ದ ಹೆಲ್ಪ್ ಆಫ್ ಅ ಹಂಡ್ರೆಡ್, ಹಂಡ್ರೆಡ್ ವಾಟ್ ಹ್ಯಾಸ್ ನಾಟ್ ಬೀನ್ ಸ್ಪೆಸಿಫೈಡ್, ಹಂಡ್ರೆಡ್ ರುಪೀಸ್ ಆರ್ ಹಂಡ್ರೆಡ್ ವರಹ ಸಮಥಿಂಗ್. ಸೊ ಶತೇನ ಪಟಂ ಕ್ರೀತವಾನ್, ಶತ ಇಸ್ ದ ಕರಣ, ಪಟ ಇಸ್ ದಿ ಕರ್ಮ, ಕ್ರೀತವಾನ್ ಇತ್ಯತ್ರ ಕರ್ತರಿ ತವತು ಪ್ರತ್ಯಯ. ಪಟಃ ಶತೇನ ಕ್ರೀತಃ, ಸೊ ದಿಸ್ ಇಸ್ ನಾಟ್ ತಿಂಗ, ದಿಸ್ ಇಸ್ ಕೃತ. ಸೊ ವೆನ್ ವಿ ಆರ್ ಸೇಯಿಂಗ್ ಕ್ರೀತಃ, ದೇರ್ ಇಸ್ ಎ ಟೈಪಿಂಗ್ ಎರರ್, ಕೃತಕರ್ಮಣಃ ಅಭಿಧಾನಂ. ವೆನ್ ವಿ ಸೇ ಪಟಃ ಶತೇನ ಕ್ರೀತಃ, ದ ಕ್ಲಾತ್ ಹ್ಯಾಸ್ ಬೀನ್ ಬಾಟ್ ವಿತ್ ಅ ಹಂಡ್ರೆಡ್ ರುಪೀಸ್. ಸೊ ತತ್ರ ಕ್ರೀತ ಇತ್ಯತ್ರ ಕರ್ಮಣಿ ಕೃತ ಪ್ರತ್ಯಯಃ ಕೃತ್. ಸೊ ಕೃತಕರ್ಮಣಃ ಅಭಿಧಾನಂ ಅಸ್ತಿ. ತದೇವ ಕಥಂ ಉಚ್ಯತೆ ಪಟಃ ಶತ್ಯಃ, ಶತೇನ ಕ್ರೀತಃ ಇತ್ಯರ್ಥೆ ಶತ್ಯಃ ಇತಿ ತದ್ಧಿತ. ಸೊ ಶತ್ಯ ದೇರ್ ದೇರ್ ಇಸ್ ಅ ತದ್ಧಿತ ಪ್ರತ್ಯಯ ಅಂಡ್ ದ ಕರ್ಮಾರ್ಥ ಇಸ್ ಬೀಂಗ್ ಗಿವನ್ ಬೈ ದ ತದ್ಧಿತ, ತದ್ಧಿತೇನ ಕರ್ಮಣಃ ಅಭಿಧಾನಂ ಅಸ್ತಿ. ಸೊ ಅತಃ ಪಟ ಶಬ್ದಾತ್ ದ್ವಿತೀಯ ನ ಭವತಿ, ಇಟ್ ಇಸ್ ದ ಸೇಮ್ ಅಸ್ ದೀಸ್ ಟು. ಸಿ ಪಟಂ ಶತೇನ ಕ್ರೀತವಾನ್ ಇತ್ಯತ್ರ ಕರ್ತರಿ ಪ್ರಯೋಗ. ಸೊ ಕರ್ಮಣಃ ಕರ್ತ ಅಭಿಹಿತಃ ಕರ್ಮಣಃ ದ್ವಿತೀಯ ಭವತಿ. ಪಟಃ ಶತೇನ ಕ್ರೀತಃ ಇತ್ಯತ್ರ ಪಟಶತ್ಯಃ. ಸೊ ಐ ಹ್ಯಾವ್ ಶೋನ್ ದಿಸ್ ಓನ್ಲಿ ಟು ಇಂಡಿಕೇಟ್ ದಟ್ ಬೋತ್ ದೀಸ್ ಮೀನ್ ದ ಸೇಮ್. ಶತೇನ ಕ್ರೀತಃ ಇತ್ಯರ್ಥೇವ ಶತ್ಯಃ ಇತಿ ತದ್ಧಿತಸ್ಯ ಪ್ರಯೋಗಃ. ಶತೇನ ಕ್ರೀತಃ ಇತಿ ಪ್ರಯುಕ್ತೇ ಕೃತಕರ್ಮಣಃ ಅಭಿಧಾನಂ, ಶತ್ಯಃ ಇತ್ಯುಕ್ತೆ ತದ್ಧಿತೇನ ಕರ್ಮಣಃ ಅಭಿಧಾನಂ. ಉಭಯತ್ರ ಕರ್ಮ ಅಭಿಹಿತಂ ಇತ್ಯತ್ರ ಇತ್ಯತಃ ಕರ್ಮಣಃ ಕರ್ಮವಾಚಕ ಶಬ್ದ ದ್ವಿತೀಯ ನ ಭವತಿ. ಸೊ ಕ್ರಯಣ ವ್ಯಾಪಾರೇ ಅಶ್ವಃ ಕರ್ಮ, ಸೊ ಸಾರಿ ಪಟಃ ಕರ್ಮ, ಇಟ್ ಇಸ್ ನಾಟ್ ಅಶ್ವ, ಇಟ್ ಇಸ್ ಪಟ. ಪಟಃ ಕರ್ಮ ಶತೇನ ಕ್ರೀತಃ ಇತ್ಯರ್ಥೆ ಶತಾಚ್ಛನ್ಯತಾ ವಶತೆ ಇತಿ ಸೂತ್ರೇಣ ತದ್ಧಿತಃ ಯತ್ ಪ್ರತ್ಯಯಃ. ಸೊ ದ ಪ್ರತ್ಯಯ ಹಿಯರ್ ಇಸ್ ಯತ್. ಶತೇನ ಕ್ರೀತಃ ಶತ್ಯ ಇತಿ ವ್ಯಾಖ್ಯಾನಂ ಪಶ್ಯಾಮಃ. ಪಟಾದಿರಿತಿ ಶೇಷಃ,
So it can be pataha, can be ashvaha, can be anything. Shatatcha thanyata vashate iti yat pratyaha tadhitaha. Atra karmanaha tadhitena uktatvat. Since the karma has been given or been conveyed by the tadhita pratyaya, na dvitiya. So it will not have dvitiya vibhakti. So, tina abhidhanam, krita abhidhanam, tadhitena abhidhanam. Ante samasena abhidhanam. Samasenapi abhidhanam bhavitum arhati. Samasa praptaha anandaha yam saha prapta anandaha. Bahubrihi samasaha. Anandaha devadattam praptaha. So happiness has reached devadatta. Iti kartari prayogaha. Atra praptaha iti kartari saprateha. Saprateha need not always be in karma. Kartartheya api kartartheya bhavati. So, anandaha devadattam praptaha. Ityatra. So, ananda or happiness has reached devadatta. So, devadattaha prapana kriyayam karma. Devadatta is the karma. So, devadattena anandaha praptaha. Anandena devadattaha praptaha. So, there is a difference. Ananda is the karta and devadatta is the karma. So, yam anandaha praptaha. He whom ananda has reached. Okay. Yam iti karma dyotyate. So dvitiyartha bahuvrihi samasa. So the bahuvrihi samasa here is in dvitiyartha. Dvitiyartha is karma. So the karma is being given by the samasa. Tena samasena karmanaha uktatvat. Praptanandaha devadattaha ityatra. Praptananda pada dvitiya na. Okay. So there should have been dvitiya. Because devadatta or praptananda both are the same. So, Praptananda is the Visheshana to Devadatta. So, they are the karma. So, Praptanandaha yaha Devadattaha saeva karma. Prapana kriyayam. Kintu, karmanaha samasena abhihitatvat. Since it is a dvitiyartha bahuvrihi, Praptaha anandaha yam iti karma samasena abhihitam. That sense of karma has already been conveyed by the samasa. Therefore, we do not have dvitiya vibhakti again. So, praptananda iti, vyakhyane, devadattadihi iti sheshaha, gatyartha karmaka ityadina prapteti kartariktaha. So, here praptaha iti karmanikta pratyaha na apitu kartarikta pratyaha. Anyapadartha karmanaha bahuvrihi samasena abhihitatvat. So, anyapadartha here is the karma and it has already been given by the bahuvrihi samasa. Anyapadartha karmanaha bahubrihi samasena abhitatvat na dvitiya iti bhavaha. Ananda kartraka prapti karmi bhutaha. So, ananda is the karta. Happiness itself is reaching whom? Devadatta. So, the karma is devadatta. Prapti karmi bhutaha iti bodhaha. Okay. So, now we have seen four ways in which this can be abhidhana. Tinga, krita, tadhitena, samasena. Atevuktam, vidhanancha prayena, tinkrit tadhita samasaihi. Now there is one word that Dikshitar has added there. Prayena, mostly. Prayena is kimartha. Why not say only these four? What other thing is there which can convey the meaning? Anyena kena abhidhanam vivitumarhati. Prayena is mostly means there is something else which is also possible. So what is it? He says, kvachit nipatena api abhidhanam. So, in some cases, a very few cases, there is nipata. Nipata is, we saw there, after the karaka adhikara, pragrishwaran nipataha ityadhikaraha arabhyate. So, immediately after the karaka adhikara, there is a nipata adhikara. So, there is a series of things which are given the nipata samnya. Okay. We have seen some of those. We have seen chadayo sattve pralayaha. The chadi words. We saw this in the samya prakarana long ago. Right? So the chadi gana. Words which are in the chadi gana. The words which are in the pradi gana. All of them are nipatas. So there are many other things which get the nipata samya. So kvachit nipatena api abhidhanam. So even by a nipata there can be abhidhana. Abhidhanam nipatena api bhavitum arhati. Yatha. Vishurukshopi samvadhya swayam chetum asamprutam. Iti udahanam diyate. Vishavrukshaha, there is a poisonous tree. So what does the sentence mean? First, Vishavrukshaha, there is a poisonous tree.
Swayam Samvardhya. But even if it is a poison, see, Samvardhya, if a person has grown it, Swayam Chetum, to cut it down oneself, Asampratam is not befitting it. I mean, it is not right. Ityartha, na yujyate, na suktam, ityartha, it is not right. So even if it is a poisonous tree, if you have grown it, it does not befit to cut it down oneself. Iti vakyasya artham. Now, atra kaha asmakam kaha sampratam ityasya hi yujyate ityartha. Sampratam means yujyate. Yujyate means it is befitting or deserving ityartha. Asampratam, na sampratam, na yujyate. Asampratam means na yujyate. So, vrishavrukshaha ityasya asampratam ityanena anvayaha. So, vishavrukshaha chet na yujyate. So, it is not right to cut down the tree. So, na yujyate ityarthakena asampratam iti nipatena. Now, the samprata is a nipata. So, what does it mean? Na yujyate. As you can see, in yujyate, it is karma. You can understand the karma better in the tinganta, tinga avihitam. Samprat asampratam ityatratu nipatena sayeva arthaha, nama karma arthaha uktaha. Karmanaha abhidhitatvat vishashruksha shabdad dhitiya nabhavati ityatraha. So, the Vyakhyana there, he tells that, but we can see a bit of the Vyakhyana, because the Vyakhyana, he starts with explaining this, but then he gives the mata of Shekharakara, that is, the Nagesha Bhatta does not accept this. Nipatena abhidhanam na bhavati ityaya uchyatena ageshena. So, tats pradhanena uktam vyakhyane. But you will just see the first part of the vyakhyana where he says, yujyate ityarthaha iti. So, yujiryoge karmani lakaraha. Yujiryoge iti dhatuhu karmani lakaraha. So, yujyate ityatra karmarthe lakaraha. Ting pratyaha. Auchitya na yujyate. So, kena na yujyate auchitya. With auchiti. Auchiti is that properness or correctness. So, auchitya yuktaha na bhavati, it is not correct, ityarthaha. Yukte dve sampratam sthane ityamaraha. Atra vrikshasya karmanaha. So, vriksha is the karma. Nipatena abhitatva na dvitiya iti bhavaha. So, there will not be dvitiya iti bhavaha. So, we'll stop there. So, next he says vastu tastu. But actually, he goes on saying how this is not correct. He says nipatena abhidhanam na bhavati iti pratipadyate. So, let us not go into that now. So, for now, abhi anabhite, anabhite karmani dvitiya iti uktam, abhidhanam katham bhavitum arhati, ting krit tadhita samasaihi kvachit nipake. Now, any questions? So, we'll stop here. So, next we go into another sutra which is Karma Samya. So, we have only seen one sutra for Karma Samya and Dvitiya Vibhakti for Karma. Three sutras. So, we have seen Kartari Sthitatamam Karma, Anabhihite Karmani Dvitiya. Okay. But there are other sutras also which give the Karma Samya. So, if you remember the Ashtadhyayi which we studied, so Kartari Sthitatamam Karma, Tatha yuktancha anipsitam akathitancha gatibuddhi pratyavasanartha shabda karma karmakanam anikarta sanam prakror anyatarasyam. So there are four or five more sutras which define karma. So other than what we have already seen in kartaripsita tamam karma. So next we will see the definitions of those karma. So everywhere, yatra yatra karma samya bhavati tatra karmani dvitiya ityane naiva dvitiya. So dvitiya vidhayakam sutram tu idam karmanaha. But karma samya can be by different sutras. So we'll see the other sutras, some of the other sutras tomorrow. Enakshara samam nayam adhigamya maheshwara tritnum vyakaranam proktam tasmai paninaye namaha. Manitrayan namaskritya taduk tishparibhavya cha vayyakarana siddhanta kaumudiyam virachyate.